एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः प्रदेश सभानाम् च सदस्यानाम् निर्वाचनाय त्रिषु प्रदेशेषु समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य मतपत्राणाम् परिवहनम् सम्पन्नम् वर्तते निर्वाचन आयोगस्य अनुसारेण यो दोलखा रामेछाप सिन्धुपाल्चोक काभ्रेपलाञ्चोक ललितपुर भक्तपुर काष्ठमण्डप जनपदेषु मतपत्राणाम् परिवहनम् सम्पन्नमस्ति प्रथम प्रदेशस्य मधेस बागमती प्रदेशयोश्च सर्वेषाम् जनपदानाम् सर्वेषु निर्वाचन क्षेत्रेषु मतपत्राणाम् परिवहनम् सम्पन्नम् वर्तते समानुपातिक निर्वाचन प्रणाल्याः पक्षे कोटिद्वयस्य द्वाविंशतेर लक्षाणाम् पञ्चविंशतेः सहस्राणाम् च मतपत्राणाम् परिवहनम् सम्पन्नमिति निर्वाचन आयोगो ज्ञापयति निर्वाचन आयोगेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य केवलं सप्तदश दिवसेभ्यः पूर्वं राजनीतिक दलानि प्रत्याशिनश्च जनसभा कोणसभा गोष्ठी सम्मेलन प्रवृत्तिन् प्रचार प्रसारयोः कार्यक्रमान् कर्तुं शक्नुवन्तीति ज्ञापितं वर्तते तत्पूर्वम् अनुचित प्रदर्शनेन विना पञ्चविंशतिं यावत् जनान् सहैव नीत्वा प्रत्याशिनः मतदातृणां प्राङ्गणम् प्रचार प्रसारार्थम् गन्तुम् शक्नुवन्तीति एतद् विक्रम वर्षीयायाः आचार संहितायाः केन्द्रीयानुगमन समितेः संयोजकश्च निर्वाचनायुक्तः राम प्रसाद भण्डारी अज्ञापयत् असौ मतदानस्य सप्तदश दिवसेभ्यः पूर्वम् कार्तिकस्य अष्टादश दिवस पूर्वम् वा प्रत्याशिभिः जनसभा कोणसभासु आयोजितासु सतिषु आचार संहितायाः उल्लङ्घनस्य अपराधम् मत्वा प्रत्याशितायाः निरसनकारिणी व्यवस्था स्थिति समस्पष्टयत् नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत कथयति पञ्चदलीय गठबन्धनस्य सर्वकारेण जनतायाः विषयाः प्राथमिकतया अग्रे वर्धापिताः सन्ति दलस्य सानेपावर्तिनी केन्द्रीय कार्यालये ह्य आयोजिते पत्रकार सम्मेलने प्रवक्ता डाक्टर महत भाषत गठबन्धन सर्वकारः स्वल्प समय एव कोरोना संक्रमणम् नियन्त्रयितुम् विदेश नीतिम् सन्तुलने आनेतुम् जनतायाः विषयान् सम्बोधयितुम् च सफलः समृद्धो वर्तते डाक्टर महत अवोचत नेपाली कांग्रेस दलम् आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानम् संघीयम् प्रादेशिकम् च निर्वाचनम् भयरहितम् स्वतन्त्रम् निष्पक्षम् च सम्पादयितुम् प्रतिबद्धमस्ति प्रवक्ता डाक्टर महत संविधानस्य रक्षा स्थायित्वम् राष्ट्रस्य समृद्धिश्च कांग्रेस दलस्य मुख्यम् लक्ष्यमस्तीति चर्चयन् अगदत् व्यक्तिगताकांक्षायाः अपेक्षया परिणाम केन्द्रितम् भूत्वा कांग्रेस दलम् अग्रे वर्धितमस्ति वाङ्मय शताब्दी पुरूषस्य सत्यमोहन जोशिनो निधने सर्वकारेण अद्य सार्वजनिकावकाशः प्रदत्तो वर्तते गृह मन्त्रालयेन ह्यो विज्ञप्तिम् प्रकाश्य संस्कृतिविदः जोशिनो निधनस्य शोके अद्य आराष्टम् सर्वेषु सर्वकारीय कार्यालयेषु सार्वजनिक संस्थासु विदेश स्थितेषु कूटनीतिक नियोगेषु च सार्वजनिकावकाशम् दातुम् राष्ट्रिय ध्वजम् अर्धम् अवनमयितुम् च निर्णीतमिति ज्ञापितम् वर्तते संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की गदति संविधानस्य रक्षायै विधिसम्मत राज्यस्य स्थापनायै च गठबन्धनम् आवश्यकम् अस्ति सुनसरी जनपदस्य कोशी ग्रामपालिकायाः लौकै स्थाने ह्य आयोजिते कार्यक्रमे असौ अभाषत जनभावनाम् सम्मान्य राष्ट्रिय विधिसम्मत राज्यस्य स्थापना सत्ता गठबन्धनस्य मूलम् उद्देश्यम् वर्तते मन्त्री कार्के राजनीतिक स्थिरतायै सुशासनाय संविधानस्य रक्षायै विधिसम्मत राज्यस्य स्थापनायै च सत्ता गठबन्धनम् निर्मितम् अस्तीति समस्पष्टयत् संचार सूचना प्रविधि मन्त्रालयस्य सचिवेन डाक्टर वैकुण्ठ अर्यालेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानाम् च निर्वाचनस्य सफलीकरणस्य अभियाने प्रवर्तनाय अन्तर्गतस्य निकायाः निर्दिष्टाः सन्ति मन्त्रालये ह्य आयोजिते विमर्शने सचिवः डाक्टर अर्यालः निर्वाचनस्य स्वच्छीकरणस्य निर्वहीकरणस्य च अभियानस्य अभियानाय सहयोक्तुम् सर्वकारीय संचार माध्यमान् सम्बद्ध निकायाञ्च अनुरुणत संचार माध्यमैः निर्वाचन आचार संहिता कठोरेण पालनीया साधारण जनाः एतद्विषये संसूचनीयाश्चेत् तत्र सचिवः डाक्टर अर्यालः बलम प्रादात। विमर्शने राष्ट्रिय समाचार समितेः रेडियो नेपालस्य नेपाल टेलिकम संस्थानस्य नेपाल दूरसंचार प्राधिकरणस्य सूचना प्रसारण विभागस्य मन्त्रालय सम्बद्धानां निकायानाञ्च अधिकारिभिः निर्वाचनस्य मर्यादित सम्पादनस्य विषये स्वस्व कार्यालयात् पूर्ण सहयोगो भवतीति प्रतिबद्धता व्यक्तासीत्। प्रधानमन्त्री शेरबहादुर देउवा वदति राष्ट्रिय शान्ति सुरक्षायो स्थापनार्थं नेपाल प्रहरीणा महत्वपूर्ण भूमिका निर्विह्यमाना वर्तते। सप्तषष्टितमस्य प्रहरी दिवसस्य अवसरे ह्य आयोजितं कार्यक्रमं सम्बोधयन् प्रधानमन्त्री देउवा अवदत् शान्ति सुरक्षा विकास निर्माणयो आधारो वर्तते इत्यतः आन्तर्बाह्य सुरक्षाया सम्बन्धे सर्वकारः संवेदनशीलोऽस्ति। सर्वकारस्य जनतायाश्च मध्ये सर्वाधिक निकटतम मित्रस्य रूपेण प्रहरीणा भूमिका निर्विह्यमाना स्थिति चर्चयन् प्रधानमन्त्री देउवा अवासत प्रहरीणा प्राकृतिक विपदा समये नागरिकाणां जीवनरक्षायां उद्धार सहायता वितरण कर्मसु च दर्शिता सक्रियता प्रशंसायोग्या वर्तते। विपदग्रस्ता नागरिका प्रथमतो नेपाल प्रहरीणं संस्मरन्तीति हेतो समेषां नागरिकाणां सुरक्षायै प्रहरी संगठनम् अतिरिक्तं दायित्ववाही सुविधा सम्पन्नं च विधातुं सर्वकारः क्रियाशीलोऽस्तीति प्रधानमन्त्री देउवा अकथयत। कार्यक्रमे गृहमन्त्री बालकृष्ण खाँड अब्रवीत् आपराधिक गतिविधिषु अपराधिनां नवीन विज्ञान प्रविध्योः प्रयोगस्य हेतोः प्रहरीणे समाह्वय वर्धितो वर्तते। गृहमन्त्री खाँड अगदत् नेपाल प्रहरीणः क्षमतायाः अभिवर्धनाय सर्वकारः सदैव प्रतिबद्धो वर्तते। कार्यक्रमे प्रहरी महानिरीक्षक धीरज प्रताप सिंह गतवर्षस्य तुलनायां संघटितापराधस्य घटनाः न्यूनीभूताः सन्तीति ज्ञापयन् प्रहरी संगठनेन अवलम्बितायाः कठोर नीतेः कारणेन पीडिताः जनाः प्रहरी कार्यालयमेत्य निवेदनानि प्रस्तुतुं क्षमाः सन्तीति अभासत। तदवसरे अवकाश प्राप्त प्रहरीयातिरिक्त महानिरीक्षकः राजेन्द्र बहादुर सिंह लाइफ टाइम एचिभमेन्ट एवार्ड इति सम्मानेन सम्मानितः आसीत्। तदवसरे प्राप्त वीरगतीनाम् अमर प्रहरीणाम् परिवाराः सम्मानिताः आसन्। एवमेव उत्कृष्ट प्रहरी अनुसन्धानकर्ती सम्मानः पुलिस ब्याटल प्रहरी सम्मानश्च प्रदत्तौ आस्ताम्। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा विदेन दलस्य केन्द्रीय निर्वाचन प्रचार प्रसार समितेः सदस्या ह्यो मनोनीताः सन्ति। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च देउवा प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां एतद् विक्रम वर्षीय निर्वाचनस्य केन्द्रीय प्रचार प्रसार समितौ 91,602 सदस्यानां द्वयस्य सदस्यानां मनोनयनं कृतवान् इति समाचारः।